हनुमानाष्टकम् अथ हनुमानाष्टकम् अतुलितबलधामं नमामि स्वर्णशैलाभदेहं नमामि धनुजवनकृशानु नमामि ज्ञानिनामग्रगण्यं नमामि सकलगुणनिधानं नमामि वानराणामधीशं नमामि रघुपतिं प्रियं भक्तं नमामि वाचजातं नमामि। श्री हनुमास्तुतिः। अञ्जनानन्दनं वीरं जानकीशोकनाशनं कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूतमुख्यं श्रीरामदूतं शिरसा नमामि। उल्लङ्घ्य सिन्धोः सलिलं सलीलं यशोकवह्निं जनकात्मजायाः आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिः आञ्जनेयम् आञ्जनेयम् अधिपाटलाननं काञ्जनाद्रिकमनीय विग्रहम् पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् यत्र यत्र रघुनाथकीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम् बाष्पवारि परिपूर्णलोचनम् मारुतिम् नमत राक्षसान्तकम् बुद्धिर्बलम् यशो धैर्यम् निर्भयत्वम् मरोगता अजाड्यम् वाक्पटुत्वम् च हनुमत्स्मरणात् भवेत्। सर्वकल्याणधातारं सर्वापद्घनवारकम् अपारकरुणामूर्तिम् आञ्जनेयं नमाम्यहम्। अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणं दुष्टग्रहविनाशाय हनुमन्तमुपास्महे। श्रीरामदूतमहाधीर रुद्रवीर्यसमुद्भव अञ्जनागर्भसम्भूतं वायुपुत्र नमोऽस्तु ते। असाध्यः साधकः स्वामिन् असाध्यं तव किं वद रामदूतकृपासिन्धो मत्कार्यं साधय प्रभो। सर्वारिष्टनिवारकं शुभकरं लिङ्गाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीं तु सूर्यप्रभम्। लङ्काद्वीपभयङ्करं सकलतं सुग्रीवसम्मानितं देवेन्द्रादिसंस्तदेवविनुतम् काकुस्तदूधं भजे। गोष्पदीकृतवाराशिं मशकीकृतराक्षसं रामायणमहामाला रत्नं वन्दे अनिलात्मजम्। यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् तत्सर्वं क्षम्यतां देव वायुपुत्र नमोऽस्तु ते। विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व पवनात्मजा।